ஹிஸ்ட்ரி சுற்றி போகிறோம். நீங்கள் வா கோமல் வரட்டும்.
டெலிகிராமில் எல்லாத்துக்கும்
ஆயிடுச்சா?
டெலிகிராமில் எல்லாத்துக்கும் ஆயிடுச்சா?
மெல்லுக்கல்ல நபர்
அப்போ இந்த ஆக்டிவிட்டி ஒன்று
ஒன்று மல்வன்
சமஸ்கிய
சமஸ்கான் கேட் நான்
லைலா சோனஸ்
ஆ வெஜு சரா ஹோனன் மென் ஒன் ஓபன் ஆ
የሚለው
ስሙ
ቤስት ቤት
ሜጋ ነው ስቁ። ሌላ ነገር የለውም?
ሌላ ዩዘር የለውም።
የአካሻር ሁለት ነው አይደል?
ልክ ያለው ቴሌግራም
ላይ። እሺ ተመስገን፣ ከፍትልሃለሁ።
ዲአክቲቬት ሆኗል። ሁለት
አካሻር ሁለት የሚለው ብቻ ነው አይደለ? ሌላ ዲአክቲቬት ሆነብሃል?
ሶስትም ሆኗል።
ሁለትና ሶስት
እየጠበቅኩ ነው። ሌላው አልዝጋው።
ችግር የለውም፣ ደውልልሃለሁ። ሌላውና ሎክ ከሆነ እኛ እንከፍታለን። ዲአክቲቬት ከሆነ ግን እኛ መክፈት አንችልም። ሊያው
ዲአክቲቬት ምን ሆኖ ነው ዲአክቲቬት
የሚሆነው? አሮ ነው ከፋይናንስ ጋር ምናምን የተያዘ ነገር አለብህ?
ማከር ከፍለናል እኮ ከፍለን ጨርሰናል።
ምናምን ጨርሰሃል? ክፍያ ምናምን ጨርሰሃል? እሺ ቆይ ሊያው፣ እና ዲአክቲቬት ከሆነ የተደረገው ለሱፐርቫይዘር አሳውቅልሃለሁ። እሺ ጠብቀኝ፣ ችግር የለም። ጄል ካሻር ዲአክቲቬት ሆኖበታል። እንጻፍላችሁ ከይረን ላይ ሄላ።
አቤት።
እሺ ተመስገን፣ በቃ እናስውቅልሃለን። እሺ ግን አላገኘሁትም እስካሁን ድረስ።
ሱቁን እኮ እንትን አድርጌለሁ፣ በእንትን ስም ነው ያለው። ከእንትን እንድትወስጂ
ጠብቀው። ዲላም ነው የሚለው ነው።
እና እንትኑ ልላክልሽ ክፍያ አይፈጸምበትም?
አይ አንተ ጨርሻለሁ ካልክ ችግር የለም። ምናልባት ከፕሮቫይደሮች ሊሆን ይችላል። እናስውቅልሃለን እና መልሼ እደውልልሃለሁ። በቃ
አረፍጠኝ። ገና ደራቆ ማለ።
እሺ አሳውቅና እንደመለሱልኝ አሳውቃለሁ።